सर्वेभ्यो नमः स्वागतम्। वयं प्रथमतया प्रार्थनां वदामः। हीना भगिनी
ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
धन्यवादः भगिनि। अद्य वयम् अभ्यासपुस्तकस्य पुनस्मरणं कुर्मः। प्रथमतया वयं अभ्यासं कर्तुं वयम् अयोध्याकाण्डसङ्ग्रहस्य तत्र वयम् अभ्यासं कुर्मः। एतत् रामायणस्य एक भागः। तत्र एतत् एव अभ्यासः भवति। बहु समीचीनमस्ति। अत्र मम स्क्रीन् द्रष्टुं शक्यते वा? अत्र अस्तु। शीला भगिनी, भवती प्रथम अत्र प्रथमवाक्यं वदति वा?
दशरथः अयोध्या महाराजः।
अत्र अयोध्या इति दत्तमस्ति। दशरथः
अयोध्यायाः राजाः
अयोध्यायाः महाराजः। अयोध्या पदपरिचयं करोतु।
आकारान्त स्त्रीलिङ्ग एकवचन।
आकारान्त स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्ग एकवचन एकवचनं।
एवं प्रथमाविभक्ति
प्रथमाविभक्ति एकवचनं। दशरथः पदस्य पदपरिचयं करोतु।
प्रथमाविभक्ति पुल्लिङ्ग अकारान्त एकवचन।
अकारान्त पुल्लिङ्ग
एकवचन।
प्रथमाविभक्ति एकवचनं।
प्रथमाविभक्ति एकवचनं।
समीचीनं। महाराजः इति पदस्य करोति
अकारान्त पुल्लिङ्ग प्रथमाविभक्ति एकवचनं।
समीचीनं। अत्र अयोध्यायाः इति पदमस्ति। एतत् का विभक्तिः?
अयोध्यायाः पञ्चमी अयोध्यायाः
न षष्टि षष्टि विभक्तिः अयोध्यायाः षष्टिविभक्तिः। अनन्तरं द्वितीयं वाक्यं राधा भगिनी। अस्तु, चित्रा भगिनी।
दशरथस्य कौसल्या सुमित्रा कैकेयी च
पत्नी इति दत्तमस्ति किम् अत्र किं वक्तव्यं कति
बहुवचनं
पत्नी इति पदस्य बहुवचनं किं
पत्न्याः पत्न्यः
कौसल्यः
पत्न्यः कौसल्याः पुत्रः रामः
कौसल्याः
एतत् पर्याप्तम् अनन्तरं नितिन् महोदय तृतीयं वाक्यम् अत्र
भगिनी पत्न्यः हौ डु वि से पत्न्यः हौ डु वि रैट्
ओ अत्र वा एकनिमिषः
पत्नी इस् इकारान्तपुल्लिङ्ग इकारान्तस्त्रीलिङ्ग
आम् एकनिमिषः अत्र पत्न्यः
धन्यवादः
इति भवति अनन्तरम् अत्र किं भवति नितिन् महोदय अत्र किं भवति अत्र कौसल्या पुत्रः पुत्र रामः इति दत्तमस्ति अस्ति चेत् अत्र कौसल्या
कौसल्याः
भगिनी क्विक्लि वन् क्वशन् सो हूम् एवर् यु आर् आस्किङ्ग् ओन्लि दे शुड् आन्सर् रैट् वि आर् डु यु वाण्ट् आल् आफ़् अस् टु आन्सर्
न अहं काम् अथवा कां पृच्छामि सः अथवा सा
उत्तरं
अस्तु अस्तु नितिन् महोदय अत्र कः कः अत्र किं वक्तव्यम् अत्र अस्तु लक्ष्मी भगिनी भवती वदति वा अत्र किं वक्तव्यं
पत्न्यः
तत्र न अत्र
ओके कौसल्यस्य
न कौसल्या इति दत्तमस्ति एतत् प्रथमतया पदपरिचयं करोतु कौसल्या
स्त्रीलिङ्गे प्रथमपुरुष स्त्रीलिङ्ग अकारान्त स्त्रीलिङ्ग प्रथमपुरुष
कौसल्या इति पदम् आकारान्त स्त्रीलिङ्ग प्रथमाविभक्ति एकवचनम्
आकारान्त स्त्रीलिङ्ग प्रथमाविभक्ति कौसल्या आकारान्त स्त्रीलिङ्ग प्रथमाविभक्ति इति वचनम्
आम् इदानीं वदतु अत्र किं वक्तव्यम् इति
ओके कौसल्याः
न अत्र वयं किम् उक्तवन्तः अत्र अयोध्या इति पदम् अयोध्यायाः इति उक्तवन्तः
कौसल्यायाः आम्
कौसल्यायाः अनन्तरं पुत्र इति दत्तमस्ति
पुत्र
एतत् किं
पुत्र पुत्र इस् इस् इट् लैक्
इट्स् प्रातिपदिकं पुत्र प्रथमविभक्ति किं
पुत्रः
पुत्रः
putraha. So putraha
atavadeva putraha
ya putraha
putraha eva putraha ramaha samichinam
prathama vibhakti akara putraha उकारान्त पुल्लिङ्ग प्रथमाविभक्ति पुत्रः
आम् पुत्रः अकारान्त पुल्लिङ्ग प्रथमाविभक्ति एकवचनं पुत्रः
अकार
प्रातिपदिकं पुत्र इति प्रथमाविभक्तिरूपेण पुत्रः इति
अकारान्त
आम् अकारान्त पुत्रः समीचीनम् इदानीं सुमित्रायाः अत्र नागेन्द्रमहोदय
सुमित्रायाः पुत्रः लक्ष्मणः शत्रुघ्नः च
समीचीनम् अत्रापि पुत्रः एव
पुत्रौ
पुत्रः
द्वि
पुत्रः द्वौ पुत्रः द्वौ न
अहं वयं वयं न पठति
वयं न पठामि
Rama,
putraha, Lakshmana. Oh, putraha. No, I was thinking it's two, so it's putra, but we didn't learn that. Maybe that's why you're saying putraha. Okay.
Putraha, Lakshmana.
Bhagini, can you hear us?
So it, we'll just keep it as putraha.
Okay.
Thank you.
So we'll keep it as putraḥ. So Lakshmanaḥ Shatrunaḥ cha. Now and the next sentence Nina bhagini
kaikeyaḥ 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 putraḥ Bharataḥ kaikeyaḥ shashti vibhakti ईकारान्त स्त्रीलिङ्गं षष्टिविभक्ति शब्दः
समीचीनं पुत्रः भरतः
कैकेय्याः पुत्रः भरतः
अनन्तरं
केन् ऐ से इट् भगिनि ऐ मिस्ड् मै
ओ आं राधा भगिनि
रामस्य पत्नी सीता
समीचीनं रामस्य पत्नी सीता
षष्टिविभक्ति
अनन्तरं चित्रा भगिनी
एकदा भरतः शत्रुघ्नः भरतः च शत्रुघ्नः मातुलस्य नगरं गच्छति
न न गतवान् गतवन्तः
दिस् इस् पास्ट् गतवन्तः गतवन्तः
सो एवरीथिंग ऑल द वर्ब्स हियर आर पास्ट टेंस
ओके
सो मातुलस्य
मातुलस्य नगर षष्ठी विभक्ति
अकारान्त
अकारान्त पुल्लिङ्ग एकवचन मातुलस्य नगरं गतवन्तः
समीचीनम्
और् अगच्छन् आल्सो विल् बि ओके न
वी हेवन्ट् लर्न्ड् दट् भगिनि सो विल् जस्ट् से गतवन्तः नेक्स्ट् शीला भगिनि
तदा ज्येष्ठपुत्रः रामराजा भवति इति दशरथः इच्छति तदा
ज्येष्ठः ज्येष्ठ प्रातिपदिकं अनन्तरं पुत्रः रामः राजा भवतु
How is that?
Past. But you said past tense, right? So, Bhutavan?
No. Bhavatu iti Dasharataha Ishtavan.
Okay.
Dasharata Ishtavan.
Oh, so Ishtavan?
No, Ishtavan.
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 Can you write it, please?
Yes. So, next, Lakshmi Bhagini, would you like to do the next sentence?
Sarve janaha hrushtaah
bhavanti hrushtaah itikte happy
hrushta pratipadikam I believe right
hrushta itikte pratipadikam hrushta pratipadikam hrushta itikte happy athava excited
so hrushta
हृष्ट विशेषणम् इति आम् विशेषणं वा कादम्बरी भगिनी हृष्ट विशेषणं वा
एकनिमिषः भगिनी भवत्याः प्रश्नं
हृष्ट विशेषणं वा
आम् अस्तु अनन्तरं नागेन्द्रमहोदय
परन्तु दशरथस्य पत्नी केकेयी इति दुःखितः भवति
दुःखिता
परन्तु दुःखिता
आकारान्त स्त्रीलिङ्ग राइट
यस
If it was a masculine, it would be Dukhitaha then. Because it is feminine, then it would be Dukhitaha.
Yes. So, Dukhita is in Stri Lingam. In Pullingam, it would be Dukhitaha.
Okay, thank you.
So, Dasharataha, Dukhitaha, that's for Pullingam. Kaikeyi Dukhita Bhavati, that's for Stri Lingam. Mahodaya,
I can do the next one?
No, I think
Ek nimsha, Mahodaya, Kaiki iti padasya padiparichyam karoto?
Parantu, which word? Which word?
Kaikeyi.
Kaikeyi. It is pratipadikam.
So what type of word is it?
एकवचनं स्त्रीलिङ्ग ईकारान्त स्त्रीलिङ्ग
समीचीनम् anantaram Neena bhagini.
Yeah, okay, I'll say this and then I have a question. Sa Dasharatham vadati mama putrah Bharatah eva raja bhavatu. Correct. It's Shashti Mama is Shashti Vibhakti Asmat Shabdam.
Vachanam?
Eka Vachanam.
Samichinam.
Okay. Quick question. I didn't understand. So in the previous sentence or any sentence, right, we said this is in the past tense. So I think I'm a little confused on why we are saying Bhavanti, Bhavati. So is it past tense only when some action, only when the sentence is talking about some action?
No. If we are describing, then it's in past tense. If they are talking, it's in present tense.
Okay. Okay.
Anantaram Chitra Bhagini.
Api cha Ramaha Vane Gacchati, if it's past and then Gatavan. Api cha Ramaha Vane Gatavan.
I think here it should be future. She should say future, right? That he should go to the forest.
Api cha Ramaha Vanam Gacchatu.
Gacchatu, yeah. Gacchatu, Vanam Gacchatu.
Let him go. So, Lot Lakarha, it's an order. He should go.
Raja Bhavatu Vanangat.
Is it Vane or Vanam?
Vanam.
Vanam.
Okay, Anantaram. It's a Karma Padam, so it's in Dvitiya Bhakti.
Bhagini, which one was the Dvitiya Vibhakti?
Vanam.
Oh, okay.
Abhija Ramaha Vanam.
Correct, I got it. Thank
you. So, Ramaha iti padasya padiparichyam karotu.
Akaranta pullinga. Prathama vibhakti.
Samichinam.
Akaranta pullinga. Yeah. Ekavachanam.
Anantaram. Kriyapadam kim?
Gacchati.
Gacchatu. Because you're saying gacchatu.
Gacchatu. So gacchatu is a kriyapadam.
Anantaram. Sheila Bhagini.
Dasarathah Murchita Bhavati. Murchitam? Is it Murchitam Bhavati? Dasarathah
Murchitaha Bhavati.
Murchitaha.
Murchitaha.
So that means unconscious. So in Strilingam it would be Murchita.
Is it Pratipadikam Murchita?
Yes. So we're using Pullingam. So it's Pratipadikam is Murchita and Prathama Vibhakti is Murchitaha. So what would be Shashti? Murchitaha.
Murchitasya?
Yes, Murchitasya. Anantaram, Radha Bhagini.
Ramaha. Ramaha. Kaikeyim Dasharatham cha
Kaikeyim
Namati, just Namati? No
yeah.
change?
No.
Namati.
So, why is it Kaikeyi or is it Kaikeyim?
Kaikeyim.
Why?
They are the objects.
Yes.
Kim namati, Kaikeyim, Dasharatam namati. So, Kaikeyim.
Dvitiya vibhakti.
Dvitiya. So, Dvitiya vibhakti, so Kam namati and Kam namati.
You should ask Kam, is it? Or Dvitiya?
Yes.
Okay.
Because it's Strilingam.
Okay.
Strilingam, it's Kam. Pulingam, it's Kam.
Okay.
Kaha becomes Kam. Ka becomes Kam. And Kim becomes Kim. Kim stays. So Anantaram Nina Bhagini.
Saha Nagarat. Nirgacchati.
Who say Nagarataha? Because we don't know Nagarat.
Oh, okay. Nagarataha Nirgacchati.
Nirgacchati means goes away.
Yes.
Leaves.
What is the meaning of the Nagarat or Nagarata?
From the city. He leaves from the city.
Oh, okay.
How do we say Nagarataha? Is it Visarga after Ra?
After Ta.
After Ta.
Yeah. Nagarataha.
Okay.
And we learned this in our, when we were learning, were we learning this from Mysore to Bangalore? Is that where we learned?
Yes.
Yes.
Aham Bangalore Taha Mysore Nagaram Gachami. So I'm going from Bangalore to Mysore.
Yep.
Taha means from. Bangalore Taha. Astu Anantaram Lakshmi Bhagini.
Sita, Sita, Lakshmana cha, can you pull that up a little bit? Or Saha? Saha?
Bhagini, scroll up a little bit. Bhagini.
Scroll up.
Yeah. Can you scroll up a little bit? Which one I'm doing? The Saha Nagaram Nigat? Saha Nagaram Nigat? Okay. Saha.
Here.
Saha Nagaram Nekachan.
No, Bhagini, that's done.
That's over.
Okay. Sita Lakshmana cha Ramaya Anu Sarate. Sita Lakshmana
Sita Lakshmanaha Sita Lakshmanaha cha Ramam
cha Ramam Anusaranti.
Bhagini,
Lakshmanaha or Lakshmanam?
Lakshmanam, Bhagini.
Lakshmanaha.
Why?
Lakshmanaha, because it's Pratama Vibhakti.
Oh, okay. Yeah.
No, why is it Pratama Vibhakti? That's what I'm asking. It's, Ramam is an object, then why is Lakshmanam not an object?
Because Sita and Lakshmana follow Rama.
Oh, okay. I misunderstood as Sita is doing what Lakshmana and Rama are doing. Okay, okay.
Sita is following Lakshmana.
Okay.
Yes.
Sita and Lakshmana.
Lakshmana. Mm-hmm. Yeah, the cha is after Lakshmana. Yeah, okay.
Bhagini, I just want to clarify in a comma separated list, so the last one gets to be the object, is it?
Yes. No, can you ask the question again?
This is, you have Sita, you have Lakshmana, and you have Rama. So it's a comma separated list of things, right? So in that, you, only the last one gets to be the object. You
no,
give the
Dvitiya only to the Cha comes last. At the end of the list.
Yeah.
So
Bani, the Cha is the driver. Here, the list is Sita and Lakshman only.
Okay.
Yes. So Cha comes at the end of the list. So Sita and Lakshmana follow Rama.
Okay, got it. Yeah.
So Rama is Karma Padam. Sita and Lakshmana is Padma Vibhakti.
So anusaranti is
Sita, Sita Rama anusarati, Lakshmanaha anusarati, Lakshmanaha Ramam anusarati. Now Sita Lakshmanaha cha Ramam anusaranti.
Comes plural.
Akine, can you also say Sita Lakshmanaha saha Ramam anusaranti? Or saha doesn't add there.
No, no.
Cha, you have to use only cha.
So if you want to use saha, then you say Sita Lakshmanena saha Ramam anusarati.
Okay.
Because it's only Sita anusarati. अस्तु सीता इति पदस्य परिपरिचयं करोतु
स्त्रीलिङ्गस्य पारान्त सीता आकारान्त स्त्रीलिङ्ग प्रथमपुरुष
समीचीनम् अनन्तरं नागेन्द्रमहोदय
रामः लक्ष्मणः सीता च नौकायां नदीं तरन्ति
What did you say for nauka?
नौकायां नौकायां
न लक्ष्मणः रामः लक्ष्मणः सीता च नौकया नदीं नौकया
We are doing Shashti then.
No, Tritiya.
No, it's Tritiya.
Using the boat.
Oh.
Aham hastena kadami. Aham kadami. Aham hastena kadami. I'm using my hand to eat. I eat with my hand. So they went by boat.
Ramena.
Yes.
Bhagini, it cannot be Naukam, is it? It cannot be Dvitiya Vibhakti. It can't be an object.
They didn't go to the boat. They went by boat.
Okay.
So it is Naukya?
Naukaya. Nadim.
Taranti.
Taranti. So, Lata, Lataya. So, Nauka, Naukaya. छुरिका छुरिकया कर्तयामि छुरिकया कर्तयामि ऐ कट् उत्तम
यूसिङ्ग्
यूसिङ्ग् अ नैफ् अस्तु
तरन्ति भगिनि इट् इस् तरन्ति रैट् इट् इस् बहुवचनं रैट् तरन्ति
तरन्ति
तरन्ति ओके थेङ्क् यू
Bhagini, which pages did we learn the Tritiya Vibhakti in the book? I'm very weak in the Tritiya Vibhakti. Which topic?
Oh, okay, actually, 1 minute, I'll just look because I don't have where, what to say. 1 minute.
Anybody can tell me because I just want to get started.
Yes, see, it's in 19.1, page 51. That's where it starts.
Thank you.
And following you have Saha and Vina.
Okay.
Okay. Next, Chitra Bhagini.
Te vanam pravishanti. जनाः शोकं कुर्वन्ति रामस्य वियोगेन दशरथः मरणं
प्राप्नोति
ते वनं प्रविशन्ति
ते इत्युक्ते के
ते बोथ् आफ् देम् आर् दे entered the forest.
Bahuvachanam.
Te ityukte Ramaha, Lakshmanaha, Sita cha vanam pravishanti. Samichin. Anantaram Sheila Bhagini.
Ramasya योग दशरथः मरण प्राप्नोति
रामस्य व्हाट डिड यू से फॉर वियोग
आई हैवंट सेड इट आई एम ट्राइंग
ओके
योग सो रामस्य इज ऑलरेडी षष्ठी
ओके रामस्य वियो
वियोग
वियोगे वियोगे
वियोगे न
यस वियोगे
दशरथः
बिकॉज़ ऑफ
तृतीय विभक्ति
यस
ओ व्हाट विभक्ति बाय वियोगेन दशरथः मरणं प्राप्नोति
वयस् मरणं तृतीया विभक्ति किं प्राप्नोति मरणं प्राप्नोति अस्तु अनन्तरं राधा भगिनी
भरतः शत्रुघ्नः च मातुलस्य गृहं प्रत्यागच्छन्ति
न भरतः शत्रुघ्नः च मातुलस्य गृहतः
ओ गृहतः
दे केम् फ्रम् दे दे केम् फ्रम् हूस् हौस् मातुलस्य गृहतः दे केम्
प्रत्यागच्छन्ति
प्रत्यागच्छन्ति दे रिटर्न् फ्रम् देर् अङ्कल्स् हौस्
गृहतः सो आफ्टर् त इस् अ विसर्ग
यस्
ओके
गृहतः
वट् विभक्ति इस् देट् गृहतः
पञ्चमे
विभक्ति सो इट्स् जस्ट् अ फार्म् इट्स् आक्चुलि पञ्चमे विभक्ति गृहात्
गृहात् ओके
बट् In Abhyas Puskam, we just use Grahataha.
This is same like Nagarataha?
Yes.
Okay.
Astu. Alantaram Neena Bhagini.
Bharataha Sarvam Vruttantam Janati.
Yes. वृत्तान्तं भरतः सर्वं वृत्तान्तं जानाति वृत्तान्त इत्युक्ते न्यूस् अथवा हेपनिङ्ग्
दि एण्टैर् हेपनिङ्ग् like what happened?
Janati.
So here Vritantam is Dvitiya Vibhakti or just Prathama Vibhakti Napunsakalingam?
No, how can it be?
Dvitiya, no?
What's the Kriyapadam?
Janati. Janati.
Who knows?
Bharataha.
So what's the Kartrupadam?
Bharataha.
So what do they know?
Karma Padam, okay.
So Vrittantam. Astu, Anantaram. Sheila Bhagini.
Saha.
दुःखितः
क्रुद्धः च भवति.
समीचीनम्. अत्र क्रियापदं किम्?
सः. कर्तृपदम् इस् सः.
कर्तृपदम् इस्सः. अस्तु. अनन्तरं लक्ष्मी भगिनी.
परतः राज्यपदनिराकरोति. राज्यपदं परतः राज्यपदं निराकरोति
इत्युक्ते निराकरोति इत्युक्ते रिजेक्ट्स्. राज्यपदम् इत्युक्ते
द्वितीयविभक्ति.
द्वितीयविभक्ति
या राज्यपदम्.
सो राज्यपदं निराकरोति. अनन्तरं नागेन्द्र महोदय.
भगिनी, विच् वर्ड् आर् वि आन् भगिनी? ऐ हेव् अ फोन् काल् कमिङ्ग्.
ओ ओके.
परिवार
हियर् महोदय.
सः परिवार सह वनं प्रविशति. परिवारसह वनं प्रविशति. परिवारः.
What do you say if you have saha?
A hint, Nagendra Mahoday, the one that you are weak in.
Yes. So there, give the hint again, Bhagini.
The one that you said you are weak in.
Oh, parivarena.
Yes.
Thank you. Saha parivarena saha vanam pravishati.
Yes. Astu. Anantaram. Neena Bhagini.
Let me read it. Tatra te sarve Rama saha. Tatra te sarve Ramena saha milanti.
Samichinam. Tatra te sarve Ramena saha milanti. Te ityukte ke?
Bharataha parivaraha cha. Bahuvachanam. पुल्लिङ्गबहुवचनम्.
क्रियापदं किं?
मिलन्ति.
कर्तृपदं किं?
ते.
समीचीनम्. कुत्र सर्वे रामेण सह मिलन्ति?
तत्र वनेन
वने
वने
वने नाट् वनेन वने
वने
सप्तमी भक्ति अनन्तरं राधा भगिनी
भवान् एव राजा भवतु इति भरतः रामं प्रार्थयति
सर्वे अवगच्छन्ति वा
आम्
अस्तु अनन्तरं वाक्यं चित्रा भगिनी
हे भरत हे भरत अहं तु इदानीं वने वने एव वसन्ति राइट
नो रामा इज सेइंग राइट सो व्हाट विल ही से
अहं तु इदानीं
वने एव
वने वने एव सो वने वाज राइट व्हाट आई सेड वाज वने एव वसामि
यस् सो
अहं तु वसामि ओके सोरि
अहं वसामि
अहं वसामि या वसामि
अस्तु अनन्तरं राधा भगिनी
चतुर्दशवर्षानन्तरम् अयोध्यायाः प्रत्यागच्छामि अयोध्याया प्रत्यागच्छामि
अयोध्याम् अयोध्यां प्रत्यागच्छामि आम् कुत्र गच्छामि अयोध्यां गच्छामि सो चतुर्दशवर्षानन्तरं इस् आफ्टर् 14 इयर्स् I will come back to Ayodhya.
Bhagini, I have a question here. This is Striling, right? So, won't it be Ayodhyaya?
That would be Saptami.
Oh.
So, Lata Latayam is Saptami. Lata Latam is Dvitiya.
Okay.
उत्पीठिका उत्पीठिकां द्वितीया उत्पीठिकायां पुस्तकम् उत्पीठिकायाम् अस्ति द बुक् इस् आन् द टेबल् सो इस् अयोध्यां सो नेक्स्ट् लक्ष्मी भगिनी
तदा अहं राजा तदा अहं राजा भवामि
समीचीनम् अहं राजा भवामि अनन्तरं लक्ष्मी नागेन्द्र महोदय
हे प्रिय राम राम हे प्रिय राम भवतः पादत्राणं मम ददातु
न न अत्र वयं न कृतवन्तः अत्र मह्यम् इति नूतनविषयः अस्ति मह्यं तुमि
तुमि ओ सो दो इट् इस् नाट् मम इट् इस् मयम्
Mahyam. We haven't done this. To give to me. Mahyam dadatu.
Mahyam dadatu.
So, hey Priya Rama, eh? Or hey Priya Rama?
Hey Priya Rama. Rama.
Hey Priya you have Rama. Sambodhanam. Bhagini, can you give the meaning of Mahyam once again?
To me. So, Pustakam, Bhagini, Pustakam, Mahyam Dadatu. Not Mam Dadatu, Mahyam Dadatu.
Yeah.
Mam Dadatu means give me. Like, give me. So, give to me. Is Mahyam Dadatu.
Bhagini, on the top we did for Aham became Mam when one of the Bhaginis was talking. Can you just show that and compare with this one?
One minute,
No, it's just down only. Couple of sentences about that.
No, it's actually in page 1. I had said Mama. But it was right at that point.
Okay.
Sa Dasharatha Vadati. It's over there. Mamam.
Oh.
Prabharataha. Eva Raja Bhavatu. Kaikeyi is
correct.
Mama Putra. Putra.
That's
my son. Yes. Here it was Mama. So this is my son. That is what they're saying. But here it is to me. Okay.
Bhagini, can you give a sentence with Mam and Mahyam so that we can differentiate it better?
Okay. Mam Pashyatu. See me. Mam Pashyatu. See me. Pustakam Mahyam Dadatu. Pustakam Mahyam Dadatu. Give me. Give to me the book. What's the karma padam pustakam? So what's the karma padam mahyam?
Dadatu.
So mahyam pustakam dadatu. Bhavan mahyam pustakam dadatu. Hmm. So, Kriya Padam Kim?
Dadatu.
Dadatu. Kattur Padam?
Mahyam.
Bhavan.
Bhavan. Yeah.
Bhavan Dadatu. Bhavan Kim Dadatu? What should you give?
Pustakam.
Pustakam.
Pustakam. Bhavan Pustakam. Dadatum Dadatu. So please give the book. So now to whom? Give the book to me. So to me. So now you put to me. So Bhavan Mahyam Dadatu. पुस्तकं ददातु भवान् मह्यं पुस्तकं ददातु अवगच्छन्ति वा
भवान् मां पश्यतु सो देट् वुड् बी द अदर् वन् रैट्
आम् माम् इस् कर्मपदम् माम् आह्वयतु इन्वैट् मी और काल् मी और माम् प्रेषयतु सेण्ड् मी ओके सो नेक्स्ट् शीला भगिनी
तस्य सहायेन अहं राज्यपालनं करोमि
समीचीनम् सो क्रियापदं किं
करोमि
कर्तृपदं
तस्य अहम् इस् अ कर्तृपदम्
आम् अहं किं करोमि
राज्यपालनं
करोमि राज्यपालनम् इस् कर्मपदम् हौ विल् ऐ डू इट्
वित् युर् हेल्प् सहायेन
न सहायेन इस् करेक्ट्
पादत्राणं
विभक्ति का सहायेन वाट् इस् द विभक्ति फर् सहायेन
तृतीया
रामेण
हस्तेन
तस्य तस्य मीन्स् वाट्
योर् नो योर्
वित् द हेल्प् आफ् वाट् पादत्राणस्य साहाय्येन अहं राज्यपालनं
करोमि अहं करोमि
ओके ओर् यस् करोमि सो तस्य साहाय्येन अहं राज्यपालनं करोमि और् करिष्यामि पादत्राणस्य साहाय्येन तस्य पादत्राणस्य साहाय्येन अहं राज्यपालनं करोमि और् करिष्यामि अस्तु अनन्तरं नीना भगिनी
ऐ थिङ्क् ऐ मे बि राङ्ग् हियर् बट् रामः भरतः पादत्राणं ददाति और् भरतं पादत्राणं ददाति
द्वितीयविभक्ति
नो
टु भरत नो
ऐ वास् फस्ट् थिङ्किङ्ग् इट्स् जस्ट् प्रथमा विभक्ति रामः
सो हियर् वी हेवन्ट् लर्न्ड् दिस् सो इफ् यु से सो इट्स् लैक् मह्यं सो गिव्स् टु भरत सो इफ् यु से रामः भरतं ददाति देन् हि विल् गिव् भरत
Yeah.
Oh, okay.
Yeah. So
he's giving Bharata to someone.
Oh, okay. Okay.
So Bharatyam.
Bharatyam.
Bharataya.
Bharataya. Okay. That's
so Ramaya Namaha. How you say Ramaya Namaha? You say
Bharataya. Bharataya.
So Bharataya.
Namaskarasya. Padatranam dadati.
Have we learned
Chaturthi,
Bahini?
No, we
have
not.
It's okay.
We will now, in next class.
Not in next class, but...
I mean, yeah, in the next phase, I guess.
Valeri.
Yeah.
So, Ramaha Dadati, Ramaha पादत्राणं ददाति रामः ददाति रामः किं ददाति रामः पादत्राणं ददाति शूस् रामः शूस्
So the question will be kam dadati, is it? Ramah kam dadati, the answer is
kam becomes whom is he giving?
Okay, okay.
Kam is karma padam. Dutiya bhakti rupam.
Okay.
So the question will be kasmai dadati.
Kasmai dadati.
We haven't learned that.
Okay.
Kaha kasmai? Kaha becomes kasmai. So Ramaha Bharataya
Padatranam Dadati.
Dadati. Ramaha Kasmaya Dadati. Ramaha Bharataya Dadati. Anantaram Chitra Bhagini.
Yeah, Bharataha Ramasya Padatranam. मस्तकस्य उपरि धरति
समीचीनं वाट् इस् द क्रियापदं
धरति
कर्मपदं
कर्मपदं पादत्राणं धरति
पादत्राणं धरति कुत्र धरति
मस्तकस्य उपरि
मस्तकस्य उपरि कस्य पादत्राणं
रामस्य भारति पादत्राणं
भरतः धरति
रामस्य पादत्राणं
न भरतः धरति भरतः पादत्राणं धरति भरतः रामस्य पादत्राणं धरति भरतः रामस्य पादत्राणं मस्तकस्य उपरि धरति
भगिनी क्विक् क्वश्चन् ऐ वास् आक्चुलि थिङ्किङ्ग् इट् वास् मस्तके धरति बट् इस् इट् नाट् मस्तके धरति बिकास् देर् इस् उपरि
यस् उपरि अस्ति चेत् षष्टि अनन्तरं राधा भगिनी
विच् वन् इस् देट्
सह परिवारेण
सह परिवारेण सह अयोध्याया प्रतिगच्छति
अयोध्यां
अगेन्
अयोध्या नगरीं
और नगरीम और नगरम
अयोध्या नगरम प्रतिगच्छति
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 सः इत्युक्ते कः
सः
कर्तृपदं
न कः
भरतः
भरतः
भरतः परिवारेण सह
भरतः
सः
भरतः परिवारेण सह
अयोध्यानगरम्
अयोध्यां
प्रतिगच्छति
गच्छति भरतः अयोध्यां प्रतिगच्छति केवलं भरतः न भरतः परिवारेण सह अयोध्यां प्रतिगच्छति with his family.
Yeah.
So, anantaram, Nagendra Mahodaya.
Ramah, Sita, Lakshmanacha. Ramah, Sita, Lakshmanacha. Saha, Anyata.
Anyat.
Anyat.
Vanam.
Vanam Vrajati.
Vrajati. Vrajati means gachati. Goes.
Oh, okay.
So, Sita becomes what? It's your favorite Vibhakti Mahodaya.
Tritiya.
So, So which word we are trying to change, ma'am?
Sita.
Oh. Sitayana.
Sitaya.
Sitaya.
Sitaya. Ramah Ramena Sita Sitaya. So Ramah Sitay. So would you like to read the full sentence?
So Ramah Sitaya Sitaya Lakshmana cha saha anyata anyat.
It's Lakshmanena and we can't hear you.
It's very
voice. Sorry. Ramah Sitaya Lakshmanena cha saha anyat vanam vrajati.
So kriyapadam kim?
Vrajati.
Samichinam. Kartripadam kim?
Ramah.
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 Ekavachanam. Gacchati ekavachanam. Ramah vrajati. Ramah ekavachanam. Kutra gacchati. Ramah kutra gacchati.
Vanam gacchati.
Vanam gacchati. Anyat vanam gacchati. Kena saha anyat vanam gacchati.
Sitaya Lakshmana cha saha.
Ramah Sitaya Lakshmanena saha. Lakshmanaha Lakshmanena saha anyat vanam rajati.
Sitaya Lakshmanena cha saha anyat vanam rajati.
Rajati. Prashnaah santiva? Prashnaah santiva?
Nasti.
Can you send this exercise to us so that we can go through it again?
Yes. Yes. Yes, Bhagini. Astu. Etat Ramayanam akritavantah idanim Mahabharatam kurmah.
Okay.
Atra yada tada ekam shat.
This is very good exercise, Bhagini.
Yeah, very nice, Bhagini. Thank you.
Na aham na kritavati. Aham Sanjeev Mahodaya iti eka asti tasya saha etat kritavan. Aham tasya upayogam kritavati. Aham na krita etat avyasam aham na kritavati.
No, but we thought about this, so we appreciate that.
Yeah, I was in his class before, Sanjeev's mother's class.
Astu. Hatra yada tada dvayam yada tada apekshaya ataha yataha yatha tata yata tata yava tavat yadi tarhi yaha sahachet. It's it. Padani upayogam kurmah. Asu idanim chitra bhagini bhavati arambham karoti va.
हस्तिनपुरस्य महाराजः पाण्डुः आसीत्
अनन्तरवाक्यमपि करोतु.
No, what is the word which has the list which is there on top? I am not able
to. I will help you.
Okay.
So Panduh, so
Vishishapat Vanam.
Bhagini, can you scroll up a bit so that we can take down those words and give it a try?
Then it will be easier.
Yeah.
Okay, 1 minute. I will just
Can you put a split screen and give both?
So I will just pause my screen sharing. So, and then I will do it, and then I will just stop pausing my screen sharing. I will resume screen sharing. one second. I'm doing this split screen as usual. Oh, okay, one minute. एकनिमिषः अहम् अन्पास् करोमि. अत्र पदानि सन्ति, अत्र टेक्स्ट्. अस्तु एकनिमिषः. एतानि पदानि किञ्चित्
ओके, दिस् इस् गुड्.
ओके, सो नौ यू केन् क्लियर्ली सी द वर्ड्स् टु फिल् इन् हियर्. ओके, केन् एवरीबडि रीड् दिस् टेक्स्ट् ओर् इस् इट्?
यस् यू केन्.
या वी केन्.
ओके, चित्रा भगिनी, यू केन् कण्टिन्यू.
हस्तिनापुरस्य महाराजः पाण्डुः आसीत्. यदा पाण्डुः शिशापात् वनं गच्छति,
गतवान्
ओके,
तदा
तस्य यदा पाण्डुः शापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत्.
समीचीनं. Did everybody understand?
Yes.
यदा, when? यदा पाण्डुः ऋषिशापात् वनं गतवान् तदा तस्य भ्राता धृतराष्ट्रः राजा अभवत्.
अभवत्.
अस्तु, अनन्तरम् एकनिमिषः. इदानीं राधा भगिनी, राधा भगिनी, अस्तु शीला भगिनी.
पाण्डवः भार्या कुन्ती माद्री इति. पाण्डोः भार्या.
So, you can, there's Dwayam and they have said Sakya. You can use a Sankhya, any numbers. So, Bharya Dwayam here.
Dwayam.
Okay, Pando Bharya Dwayam Kunti Madri Iti.
Ek Nimshaha. अत्र अपि अहं अनन्तरम् अहम् अत्र स्थापयामि. अत्र अस्ति, अत्र न आवश्यकम्. इदानीम् एतत् किञ्चित् करोमि. समीचीनं वा? अस्तु, शीला भगिनी.
ऐ आलरेडि सेड् पाण्डो भार्या द्वयं कुन्ती माद्री
इति. समीचीनं. अनन्तरं मीना भगिनी.
वने एव कुन्त्याः त्रीणि पुत्राः जाताः.
त्रयः
पुत्राः जाताः.
पुलिङ्गे त्रयः.
स्त्रीलिङ्गे
तिस्रः. नपुंसकलिङ्गे
त्रीणि. समीचीनम्.
माद्र्या द्वौ पुत्रौ जातौ
समीचीनम् अनन्तरं
द्वयं पुत्रौ जातौ
न पुत्रद्वयं
पुत्रद्वयं
पुत्रद्वयं जातम् अस्तु अनन्तरं लक्ष्मी भगिनी
ते पाण्डवाः ते पाण्डवाः इति प्रसिद्धाः ते
वाट् कम्स् बिफोर् पाण्डवाः यूशुलि
पञ्चपाण्डवाः इति प्रसिद्धाः पञ्च
भवती अपि अग्रिमे अग्रिमं वाक्यं करोतु
महा धृतराष्ट्रस्य अपि
शतपुत्राः
जाताः
समीचीनम् अनन्तरं नागेन्द्रमहोदय भवान् अपि द्वयं वाक्यद्वयं करोतु
कौरवाः इति ख्याताः वने
ते कौरवाः इति ख्याताः ख्याताः इत्युक्ते वर् नोन् एस् ते के
कौरवाः
धृतराष्ट्रस्य शतपुत्राः कौरवाः इति ख्याताः
इस् वाट् यु सेड् सारी
अनन्तरं वने
यत्र तत्र
अस्तु एकनिमिषः अहम् अत्रापि अहं अत्रापि एतत्
वने पाण्डु वने डेश् पाण्डुः माद्री च मरणं प्राप्तवन्तौ सो ऐदर् इट् इस् अतः यतः वने यत् वने यथा वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्तीः पुत्रैः सह हस्तिनापुरम् आगतवान्
सो वने यदा पाण्डुः माद्री च मरणं प्राप्तवन्तौ तदा कुन्ती पुत्रैः सह हास्तिनपुरम् आगतवती समीचीनं महोदय आगतवती इति वक्तव्यम् आगतवान् आगतवती इति
वक्तव्यम्
अस्तु अनन्तरं चित्रा भगिनी
तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासं भवन्ति
तत्र पाण्डवानां कौरवाणां च शस्त्राभ्यासम्
अभवत्
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 नेक्स्ट् सेण्टेन्स् टु भगिनि
कौरवाणां पाण्डवानां बलम् अपेक्षया कौरवाणाम् अपेक्षया पाण्डवानां बलम् अधिकम् आसीत्
समीचीनं किञ्चित् इदानीं राधा भगिनी
कौरवज्येष्ठः दुर्योधनः लाक्षागृहे पाण्डवान् मारयितुं प्रयत्नं
कृतवान् लाक्षागृहम् इत्युक्ते वाक्स् हौस् ज्येष्ठः
इत्युक्ते
एल्डेस्ट् कौरवज्येष्ठः कः
दुर्योधनः
अनन्तरं वाक्यमपि मारयितुं कः प्रत्ययः
मारयितुं
कीदृशरूपं
तुमुन्
प्रत्ययः
मारयितुं
कर्तुं धावितुम् अस्तु अनन्तरं शीला भगिनी
कुन्त्या सह पाण्डवाः पाण्डवाः गृहात् बहिः आगत्य वनं प्रविष्टवन्तः
प्रविशन्ति बहुवचनरूपं प्रसेण्ट् टेन्स् प्रविष्टवन्तः इस् पास्ट् टेन्स् बहुवचनं
प्रविष्टवन्तः
Okay. Can you just do the last, no, the next two sentences?
Vane Pandava Shrestaha Bhimaha Hidimbasurasya Vadham
Kritavan. Kritavan. Kaha Kritavan?
Vadham Kurtu.
Bhimaha.
Pandava Shrestaha. It's best of Pandavas, Bhima, Hirimbasurasya, Vadham
Kritavan.
Shashti, Vadham Kritavan. Agree?
Tataha Pandavaha Eka Chakranagaram
Praptavantaha.
What is Eka Chakranagaram?
City. Ekachakra City?
Yes. That's where Bakasura lived.
Why didn't you think?
So Tataha means?
Then.
Then.
After.
Killing.
Killing here, Basura. Then they went to Ekachakranagaram. Okay, so we will stop here today. I think it was it Radha Bhagini for the Shanti Mantra?
Yeah.
Okay.
Om. Can I start?
Yes, Bhagini.
Om Sarve Bhavantu Sukhinaha Sarve Santu Niramaya सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः
हरि ओम् श्रीगुरुभ्यो नमः हरि ओम्
धन्यवादः भगिनी
धन्यवादः
सर्वेभ्यो नमः धन्यवादः नमस्कारः